वर्षस्मै पुरो रथमिन्द्राय सूषमर्चत अधिकेजिलोकृत्सङ्गे समत्सु वृत्रहास्माकम् बोधितोधितानभन्दामन्यकेषाम् जाता अधिदण्डासु त्वम् सिन्धो ग्रवासुयोधरातो अहम् नहिम् शत्रुनिन्दयज्ञे विश्वम् पुष्यति वार्यन्तम् त्वापरिष्वजामहे न भन्दामन्यकेषाम् जाता अधिदण्डासु येषु विश्वा अरातयोर्यो न सन्तनो धियाः अहस्तासि सत्रामे वधम् यो न इन्द्रजिघाम् सदियाते राजर्दधिर्वसु न भन्दामन्यकेषाम् जाता अधिदण्डासु यो न इन्द्राभितो जनो आवृकायुरादिते सति अधस्पदम् तमीङ्गृति विभाधो हसि सा सहिर्न भन्दामन्यकेषाम् जाता अधिदण्डासु यो न इन्द्राभिता सदिसनाभिर्यश्च निष्ट्याः अपदस्य बलम् दिलमहीवद्यौरधत्मना न भन्दामन्यकेषाम् जाता अधिदण्डासु अयमिन्द्रत्वाय वस्तके त्वमारभामहे ऋतस्य नः पथा न याति विश्वानि दुरितान् भन्दामन्यकेषाञ्जाता अधिदण्डासु अस्मभ्यम् स्वत्वमिन्द्रताम् शिक्षया दोहते प्रतिपरम् चरित्रे अच्छिद्रोऽग्नीलीलयद्यथा नः सहस्रधारापयसा महीयौः